एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सनातन धर्मावलम्बिभिः फाल्गुन कृष्ण पक्षस्य चतुर्दशी तिथौ महाशिवरात्रि पर्व भगवतः श्री शिवस्य पूजाराधना पूर्वकं समादृतमस्ति। फाल्गुन कृष्ण पक्षस्य चतुर्दशी तिथि भगवतः श्री शिवस्य ज्योतिर्लिंग स्वरूपेण प्राकट्यतिथि अस्ति इति शास्त्रेषु उक्तं वर्तते। इत्यतः अस्मिन् दिने समग्रे विश्वे सनातन धर्मावलम्बिभिः भगवतः महादेवस्य विशेषरूपेण पूजाराधने विधाय महाशिवरात्रि पर्व समाद्रीयते। महाशिवरात्रि पर्वणः अवसरे ह्य प्रातः कालाद् रात्रि पर्यन्तं काष्ठमण्डपस्य देवपत्तनस्थे श्री पशुपतिनाथ मन्दिरे देवाधिदेवस्य भगवतः श्री पशुपतिनाथस्य दर्शन पूजन स्तवनार्थं देशस्य परदेशानाश्च विभिन्नेभ्यः स्थानेभ्यः पारिलक्ष्यं श्रद्धालवः भक्तजनाः समुपस्थिताः आसन्। महाशिवरात्रेः अवसरे श्री पशुपतिनाथ मन्दिरं पुष्पालंकारहि भव्यरूपेण सुशोभितमासीत्। एतदवसरे सप्तलक्षाधिकै भक्तैः भगवतः दर्शनं विहितमिति पशुपति क्षेत्र विकास कोषेण अनुमानं विहितं वर्तते। शिवरात्रि पर्वणः कृते पशुपत क्षेत्रे देशस्य विभिन्न स्थानेभ्यः अन्येभ्यश्च देशेभ्यः साधवः महात्मनः समुपस्थिताः सन्ति। शिवरात्रेः दिने देशस्य अन्येषु सर्वेषु शिवमन्दिरेषु शिवालयेषु च भगवतः शिवस्य समाराधनायै भक्तानां सम्मर्दः आसीत्। अत्रैव राष्ट्रपतिना रामचन्द्र पौडेलेन महाशिवरात्रि पर्वणः अवसरे ह्य अपराह्ने श्री पशुपतिनाथ मन्दिरं प्राप्य भगवतः दर्शनं विहितम्। महाशिवरात्रि पर्वणि राष्ट्रप्रमुखेण श्री पशुपतिनाथस्य पूजाकरणस्य परम्परा वर्तते। एवमेव प्रधानमन्त्रिणा सुशीला कार्किणा च ह्य अपराह्ने श्री पशुपतिनाथ मन्दिरं प्राप्य भगवतः दर्शनं विहितम्। ह्य एव नेपाली सेनया महाशिवरात्रि पर्व सेना दिवसस्य विशेष कार्यक्रमम् आयोज्य समादृतौ स्तः। सेनया महाशिवरात्रि पर्वणः सेना दिवसस्य चावसरे काष्ठमण्डपस्य सैनिक मञ्चे टुडीखेलस्थाने विशेष कार्यक्रमः समायोजितः। एतदवसरे सेनायाः विभिन्नैः गणैः विभिन्नाः कलाः नृत्यानि शास्त्राभ्यासाश्च प्रदर्शिताः आसन्। कार्यक्रमे राष्ट्रपतिः नेपाली सेनायाः परमाधिपतिश्च रामचन्द्र पौडेलः उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः प्रधानमन्त्री सुशीला कार्की सांविधानिक नियोगानां प्रमुखाः मन्त्रिणश्च सहभागिनः आसन्। समारोहे भारत बेलायत अमेरिका देशानां सेनानां संगीतसमूहैश्च संगीतकलाः प्रदर्शिताः आसन्। नेपाली सेनया भगवन्तं शिवं शक्तेः ऊर्जसश्च स्रोतत्वेन स्वीकृत्य विगतात् दशकद्वयात् शिवरात्रि पर्वणि सेनादिवसः समायोज्यमानोऽस्ति। अस्यैव फाल्गुन मासस्य आगामिनि एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते गतरात्र्याः द्वादशवादनात् राजनीतिकदलैः प्रत्याशिभिश्च निर्वाचनस्य कृते प्रचारः प्रसारश्च समारब्धोऽस्ति इति निर्वाचन आयोगेन ज्ञापितम् वर्तते। आयोगे ह्य आयोजिते पत्रकार सम्मेलने कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी आयोगस्य पूर्व निर्धारितायाः कार्यतालिकायाः अनुसारेण अद्यतः अस्यैव फाल्गुन मासस्य अष्टादश दिवसस्य रात्रौ द्वादशवादनं यावत् राजनीतिक दलानि प्रचारं प्रसारं सभां गोष्ठीं मतदातृ मेलनादि कार्यक्रमांश विधातुम् अनुमन्यन्ते इति असूचयत्। प्रचारस्य च क्रमे राजनीतिक दलैः प्रत्याशिभिश्च आयोगे विहितायाः प्रतिबद्धतायाः अनुसारेण एव आचार संहितायाः परिपालनं कर्तव्यम् इति असौ अगदत्। प्रचारस्य च क्रमे कर्तव्यभूतानां कार्याणां विषये निर्वाचन आयोगेन राजनीतिक दलानि प्रत्याशिनश्च चतुष्षष्टि सूत्रात्मिक्यायाः आचार संहितायाः विषये सूचितानि सन्ति। अस्यैव फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते पञ्चपञ्चाशदुत्तरैकशत निर्वाचन क्षेत्राणां मतपत्राणि मुद्रितानि सन्ति इति निर्वाचन आयोगेन ज्ञापितं वर्तते। ह्यस्तन दिवसं यावत् एककोटि एकनवतिर्लक्ष्याणि चतुर्विंशति सहस्राणि च मतपत्राणि मुद्रितानि सन्ति इति निर्वाचन आयोगस्य सहायक प्रवक्ता कुलबहादुर जीषी असूचयत्। साम्प्रतं यावत् सप्तदश सहस्रेषु सप्तशतेषु अष्टविंशतौ च पोटलिकासु मतपत्राणि सज्जीकृतानि सन्ति इति निर्वाचन आयोगेन ज्ञापितं वर्तते। निर्वाचन आयोगेन प्रतिनिधि सभायाः निर्वाचनस्य कृते ह्यस्तन दिवसात् आराष्ट्र मतदातृ शिक्षा कार्यक्रमः संचालितोऽस्ति। प्रतिनिधि सभा सदस्यानां निर्वाचनस्य कृते अष्टसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयायाः निर्वाचन शिक्षा मतदातृ शिक्षा निर्देशिकायाः अनुसारेण ह्यस्तन दिवसात् मतदातृ शिक्षा संचालिता अस्ति। कार्यक्रमोऽयं ह्यस्तन दिवसात् अस्यैव फाल्गुन मासस्य सप्तदश दिवसं यावत् आराष्ट्रं त्रिपञ्चाशदुत्तर त्रिशत संख्यातानां स्थानीय स्तराणां सर्वेषु ओडास्तरेषु संचाल्यते। प्रतिनिधिसभायाः निर्वाचने भागं गृहीतवद्भिः अधिकांशैः दलैः प्रत्यक्ष प्रणाल्याः स्वतन्त्र प्रत्याशिभिश्च ह्य निर्वाचन घोषणापत्रं प्रकाश्य निर्वाचन आयोगे अर्पितमस्ति। ह्य राष्ट्रिय स्वतन्त्र दलेन, उज्यालो पार्टी नेपाल दलेन, प्रगतिशील लोकतान्त्रिक प्रलोपा दलेन, नेम किपा दलेन च प्रतिबद्धता पत्राणि निर्वाचन आयोगे प्रस्तुतानि सन्ति। क्रिकेट क्रीडायाः टी ट्वेन्टी प्रारूपस्य विश्वस्तरीयायाः स्पर्धायाः प्रथमचरणान्तर्गतं तृतीयायां क्रीडायां नेपालः पराजितो वर्तते। मुम्बईनगरस्थितायां वांखडे रंगशालायां ह्य सम्भूतायां तृतीयायां क्रीडायां नेपालः वेस्टइण्डीजदेशेन सह पराजितोऽस्ति। नेपालेन विजयाय प्रदत्तं चतुस्त्रिंशदुत्तर एकशत धावनांकानां लक्ष्यं वेस्टइण्डीजदेशेन एकस्य क्रीडकस्य क्षतौ दशमलव द्युत्तर पञ्चदश ओवरांकेषु अधिगतम् आसीत्। ततः पूर्वं प्रथमं क्रीडितवता नेपालेन विंशति ओवरांकेषु अष्टौ क्रीडकानां क्षतौ त्रयस्त्रिंशदुत्तर एकशत धावनांका अर्जिता आसन्। वेस्टइण्डीजदेशात् सम्भूतेन पराजयेन सहैव नेपाल टी ट्वेन्टी प्रारूपस्य विश्वस्तरीयाया स्पर्धाया प्रथमचरणादेव बहिर्भूतोऽस्ति। समूहचरणात् बहिर्भूतोऽपि नेपाल श्व स्पर्धाया चतुर्थ्यां क्रीडायां स्कॉटलैण्डदेशेन सह क्रीडिष्यति।